श्रीस्तुतिहि श्रीमान् वेंकटनाथार्यः कवितार्किक केसरी वेदांताचार्य वर्यो मे सन्निधत्तां सदा हृदि मानातीत प्रथित विभवां मंगलं मंगलानां वक्षपीठीं मधुविजयिनो भूषयन्तीं स्वकांत्या प्रत्यक्षानुश्रविक महिम प्रार्थिनीनां प्रजानां श्रेयो मूर्तिं श्रियमशरणस्त्वां शरण्यां प्रपद्ये मानातीत प्रथित विभवां मंगलं मंगलानां वक्षपीठीं मधुविजयिनो भूषयन्तीं स्वकांत्या प्रत्यक्षानुश्रविक महिम प्रार्थिनीनां प्रजानां श्रेयो मूर्तिं श्रियमशरणस्त्वां शरण्यां प्रपद्ये आविर्भावः कलशजलधा वध्वरे वापि यस्याः स्थानं यस्याः सरसिजवनं विष्णुवक्षस्थलं वा भूमा यस्याः भुवनमखिलं देवि दिव्यं पदं वा स्तोकप्रज्ञैरणवधिगुणा स्तूयसे सा कथं त्वम् स्तोतव्यत्वं दिशति भवती देहिभिः स्तूयमाना तामेव त्वाम् अनितरगतिः स्तोतुमाशंसमानः सिद्धारम्भः सकलभुवन श्लाघनीयो भवेयम् सेवापेक्षा तव चरणयोः श्रेयसे कस्य न स्यात् यत्संकल्पात् भवति कमले यत्र देहिन्यमीषाम् जन्मस्थेम प्रलयरचना जंगमा जंगमानाम् तत्कल्याणं किमपि यमिनामेकलक्ष्यं समाधौ पूर्णं तेजः स्फुरति भवति पादलाक्षारसाङ्कम् निष्प्रत्यूह प्रणयघटितं देवि नित्यानपायम् विष्णुस्त्वं चेत्यनवधिगुणं द्वन्द्वमन्योन्यलक्ष्यम् शेषश्चित्तं विमलमनसां मौलयश्च श्रुतीनां सम्पद्यन्ते विहरणविधौ यस्य शय्या विशेषाः उद्देश्यत्वं जननि भजतो रुज्झितोपाधिगन्धम् प्रत्यग्रूपे हविषि युवयो रेकशेषित्वयोगात् पद्मे पत्युस्तव च निगमैर्नित्यमन्विष्यमाणो नावच्छेदं भजति महिमा नर्तयन्मानसं नः पश्यन्तीषु श्रुतिषु परितः सूरिभृन्देन सार्धम् मध्ये कृत्य त्रिगुणफलकं निर्मितस्थानभेदम् विश्वाधीश प्राणयिनि सदा बिभ्रमद्यूतवृत्तौ ब्रह्मेशाद्या दधति युवयो रक्षशारप्रचारम् अस्येषाना त्वमसि जगतः संश्रयन्ती मुकुन्दम् लक्ष्मीः पद्मा जलधितनया विष्णुपत्नीन्दिरेति यन्नामानि श्रुतिपरिपणान्येवमावर्तयन्तो नावर्तन्ते दुरितपवन प्रेरिते जन्मचक्रे त्वामेवाहो कतिचिदपरे त्वत्प्रियं लोकनाथं किं तैरन्तः कलहमलिनैः किञ्चिदुत्तीर्यमग्नैः त्वत्सम्प्रीत्यै विहरति हरौ सम्मुखीनां श्रुतीनां भावारूढौ भगवति युवां दम्पती दैवतं नः आपन्नार्तिप्रशमनविधौ बद्धदीक्षस्य विष्णोः आचक्युस्त्वां प्रियसहचरीम् ऐकमत्योपपन्नाम् प्रादुर्भावैरपि समतनुः प्राध्वमन्वीयसे त्वम् दूरोत्क्षिप्तैरिव मधुरता दुग्धराशेस्तरङ्गैः धत्ते शोभां हरिमरकते तावकी मूर्तिराद्या तन्वीतुङ्गस्तनभरनता तप्तजाम्बूनदाभा यस्यां गच्छन्त्युदयविलयैर्नित्यमानन्दसिन्धौ इच्छावेगोल्लसितलहरी विभ्रमं व्यक्तयस्ते आसंसारं विततमखिलं वाङ्मयं यद्विभूतिः यद्भ्रूभङ्गात् कुसुमधनुषः किङ्करो मेरुधन्वा यस्यां नित्यं नयनशतकैरेकलक्ष्यो महेन्द्रः पद्मे तासां परिणतिरसौ भावलेशैस्त्वदीयैः अग्रे भर्तुः सरसिजमये भद्रपीठे निषण्णाम् अम्भोराशेरधिगतसुधा सम्प्लवादुत्थितां त्वाम् पुष्पासारस्थगितभुवनैः पुष्कलावर्तकाद्यैः क्लुप्तारम्भाः कनककलशैरभ्यषिञ्चन् गजेन्द्राः आलोक्यत्वामृतसहजे विष्णुवक्षस्थलस्थाम् शापाक्रान्ताः शरणमगमन् सावरोधाः सुरेन्द्राः लब्ध्वा भूयस्त्रिभुवनमिदम् लक्षितम् त्वत्कटाक्षैः सर्वाकारस्थिरसमुदयाम् सम्पदं निर्विशन्ति आर्तत्राणव्रतिभिरमृता सारनीलाम्भुवाहैः अम्भोजानां मुषसि मिषताम् अन्तरङ्गैरपाङ्गैः यस्यां यस्यां दिशि विहरते देवि दृष्टिस्त्वदीया तस्यां तस्यां अहमहमिकां तन्वते सम्पदोघाः योगारम्भत्वरितमनसो युष्मदैकान्त्ययुक्तम् धर्मं प्राप्तुं प्रथममिह ये धारयन्ते धनायां तेषां भूमेर्धनपतिगृहादम्बरादम्बुधेर्वा धारानिर्यान्त्यधिकमधिकं वाञ्छितानां वसूनां श्रेयस्कामाः कमलनिलये चित्रमाम्नाय वाचां चूडापीडं तव पदयुगम् चेतसा धारयन्तः छत्रच्छाया सुभगशिरसश्चामरस्मेरपार्श्वाः श्लाघाशब्दश्रवणमुदिताः स्रग्विणः सञ्चरन्ति ऊरीकर्तुं कुशलमखिलं जेतुमादीनरातीन् दूरीकर्तुं दुरितनिवहं त्यक्त्युमाद्यामविद्याम् अम्बस्तम्बावधिक जनन ग्राम सीमांतरेखाम् आलंबन्ते विमल मनसो विष्णुकांते दयांते जाताकांक्षा जननी युवयो रेकसेवाधिकारे मायालीढं विभवमखिलं मन्यमानास्त्रणाय प्रीत्यै विष्णोस्तव च कृतिनः प्रीतिमन्तो भजन्ते वेलाभंग प्रशमन फलं वैदिकं धर्मसेतुम् सेवे देवी त्रिदश महिला मौलिमालार्चितं ते सिद्धिक्षेत्रं शमित विपदां संपदां पादपद्मं यस्मिन्नीशन् नमित शिरसो यापयित्वा शरीरं वर्तिष्यन्ते वितमसि पदे वासुदेवस्य धन्याः सानुप्रास प्रकटित दयैः सांद्रवात्सल्यदिग्धैः अम्बस्निग्धैरमृतलहरी लब्धसब्रह्मचर्यैः घर्मे तापत्रय विरचिते गाढतप्तं क्षणं माम् आकिञ्चन्य ग्लपितमनघैरार्ध्रयेथाः कटाक्षैः संपद्यन्ते भवभयतमी भानवस्त्वत्प्रसादात् भावाः सर्वे भगवति हरौ भक्तिमुद्वेलयन्तः याचे किं त्वामहमिह यतः शीतलोदारशीला भूयो भूयो दिशसि महतां मङ्गलानां प्रबन्धान् माता देवी त्वमसि भगवान् वासुदेवः पिता मे जातः सोऽहं जननि युवयो रेकलक्ष्यं दयायाः दत्तो युष्मत्परिजनतया देशिकैरप्यतस्त्वं किं ते भूयः प्रियमिति किल स्मेरवक्त्रा विभासि माता देवी त्वमसि भगवान् वासुदेवः पिता मे जातः सोऽहं जननि युवयो रेकलक्ष्यं दयायाः दत्तो युष्मत्परिजनतया देशिकैरप्यतस्त्वं किं ते भूयः प्रियमिति किल स्मेरवक्त्रा विभासि कल्याणानाम् अविकलनिधिः कापि कारुण्यसीमा नित्यामोदा निगमवचसां मौळिमन्दारमाला सम्पद्दिव्या मधुविजयिनः सन्निधत्तां सदा मे सैषा देवी सकलभुवन प्रार्थना कामधेनुः कल्याणानाम् अविकलनिधिः कापि कारुण्यसीमा नित्यामोदा निगमवचसां मौळिमन्दारमाला सम्पद्दिव्या मधुविजयिनः सन्निधत्तां सदा मे सैषा देवी सकलभुवन प्रार्थना कामधेनुः उपचित गुरुभक्तेरुत्थितं वेङ्कटेशात् कलिकलुष निवृत्त्यै कल्पमानं प्रजानां सरसिज निलयायाः स्तोत्रमेतत्पठन्तः सकलकुशलसीमाः सार्वभौमा भवन्ति उपचित गुरुभक्तेरुत्थितं वेङ्कटेशात् कलिकलुष निवृत्त्यै कल्पमानं प्रजानां सरसिज निलयायाः स्तोत्रमेतत्पठन्तः సకల కుశల సీమాః సార్వభౌమాః భవంతి. కవితార్కిక సింహాయ కళ్యాణ గుణశాలినే శ్రీమతే వెంకటేశాయ వేదాంత గురవే నమః.